इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी अद्य केरलं गमिष्यति। अस्मिन् अवसरे श्री मोदी तिरुवनन्तपुरे विभिन्नानां विकासात्मक परियोजनानां शिलान्यासं उद्घाटनं ध्वजप्रदर्शनं च करिष्यति। सः अस्मिन् अवसरे सभामपि संबोधयिष्यति। परियोजनाः रेलसंपर्कः, नगरीयजीविका, विज्ञानं नवीनता च, नागरिककेन्द्रितसेवाः, उन्नतस्वास्थ्यसेवा च इत्यादिषु प्रमुखक्षेत्रेषु व्याप्ताः सन्ति, येन प्रधानमन्त्रिणः ध्यानं समावेशीयवृद्धौ, प्रौद्योगिक्याः उन्नतौ, नागरिकाणां जीवनस्य गुणवत्तायाः परिष्कारे च निरन्तरं प्रतिबिम्बितं वर्तते। उपराष्ट्रपतिः सीपी राधाकृष्णन्वर्यः अद्यारभ्य ओडिशा पश्चिमबंगयोः यात्रायां भविष्यति। अस्मिन् अवसरे उपराष्ट्रपतिः संस्कृतिमन्त्रालयेन कटककोलकत्तानगरयोः आयोजिते पराक्रमदिवससमारोहे भागञ्च भजिष्यति। वैद्युतीय तथा सूचना प्रौद्योगिकी मन्त्री श्री अश्विनी वैष्णवः उक्तवान् यत् भारतं विश्वसनीय मूल्यश्रृंखला सहभागी देशः अथ समावेशीयवृद्धौ केन्द्रितश्च वर्तते। ह्यः दावोस इत्यत्र विश्व आर्थिक मञ्चस्य पार्श्वे एकस्य निजमाध्यम साक्षात्कारे श्री वैष्णवः सूचितवान् यत् भारतं एआई आर्किटेक्चर, अप्लिकेशन मॉडल, चिप इन्फ्रा तथा ऊर्जा च इत्येतैः समाविष्टायाः कृत्रिमबुद्धेः पञ्चसु अपि स्तरेषु कार्यं कुर्वन् वर्तते। नवनवीकरणीय ऊर्जा मंत्री प्रह्लाद जोशी प्रोक्तवान् यत् भारतस्य ऊर्जा संक्रमणं, औद्योगिकीकरणं, उद्योगसृजनं, वैश्विक प्रतिस्पर्धाञ्च चालयति, उदयमान अर्थव्यवस्थायै एकं प्रतिरूपं प्रयच्छति। दावोस इत्यत्र विश्व आर्थिक मञ्चस्य वार्षिक सभायाः एकस्मिन् सत्रे संबोधयन् मंत्री उक्तवान् यत् भारतेन स्वच्छ ऊर्जा जनकेन्द्रित विकासान्दोलन रूपेण परिवृता, तथैव स्वच्छ ऊर्जया ऊर्जा सुरक्षा सुदृढीकृता, ऊर्जा व्ययोपि न्यूनीकृतः। ह्यः प्रधानमन्त्री श्री नरेन्द्र मोदी ब्राजीलस्य राष्ट्रपतिः लूला ड सिल्वा इत्यस्मात् दूरभाषं प्राप्तवान्। अस्मिन् अवसरे उभौ नेतारौ भारत ब्राजील रणनीतिक सहभागिताम् इतोपि सुदृढां कर्तुम्, आगामि समये अपि अधिक औन्नत्यं प्रति नेतुं स्वप्रतिबद्धतायाः पुनः पुष्टिं कृतवन्तौ। विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् द्वयोः नायकयोः मध्ये परस्परहितस्य क्षेत्रीय वैश्विक विषयेषु विचार विनिमयः अभवत्। अद्य देशस्य विभिन्नेषु भागेषु वसन्तपञ्चमी महोत्सवः, सरस्वतीपूजा च धार्मिक उत्साहेन श्रद्धया च आचर्यते। अस्मिन् अवसरे जनाः, विशेषतः छात्राः, विद्याकांक्षिणः प्रज्ञाज्ञानयोः देवीं सरस्वतीं पूजयन्ति। वसन्तपञ्चमी वसन्तऋतोः आगमनस्य, नूतन आरम्भस्य, प्रकृतेः सौन्दर्यस्य च सूचिका अपि वर्तते। गुलमार्गस्य प्रसिद्धं स्काई रेसॉर्ट तथा काश्मीर उपत्यकायाः अन्येषु कतिपयेषु क्षेत्रेषु श्रीनगरे च तीव्रवेगयुक्त वायुना सह नवीन हिमपातः अभवत्। बारामुल्लामण्डलस्य गुलमार्गे ह्यः सायंकाले हिमपातस्य आरम्भः जातः। एप्रिल मासस्य प्रथमदिनांकात् जनगणना आरप्स्यते। सर्वकारेण 33 प्रश्नाः सूचिताः, ये च जनगणनायाः प्रथमचरणस्य कालखण्डे नागरिकाणां पुरतः स्थापिताः भविष्यन्ति। जनगणना 20-27 इत्यस्य प्रथमचरणस्य ग्रहसूचीकरणसञ्चालनम् अस्मिन् वर्षे अप्रैल मासस्य प्रथमदिनात् 30 सितम्बर्पर्यन्तं प्रत्येकेन राज्येन, केन्द्रशासितप्रदेशेन च निर्दिष्टे 30-दिवसीयकालमितौ भविष्यति। बैडमिंटन क्रीडायां भारतस्य लक्ष्यसेनः अद्य जकार्तानगरे इण्डोनेशिया मास्टर्स इति पुरुषाणाम् एकल क्वार्टर फाइनल क्रीडायां थाईलैंडदेशस्य पनितचाफोन इत्यमुं विरुध्य क्रीडिष्यति। इति वार्ताः।